अहम् दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते अहम्
दादू